श्रीमद्भागवत महापुराणम् एकादश स्कन्धः अथैकोनत्रिंशोऽध्यायः उद्धव उवाच सुदुश्चरामि मां मन्ये योगचर्यामनात्मनः यथाञ्जसा पुमान् सिद्धे तन्मे रूयैञ्जसाच्युत प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः विषीदन्त्यसमाधानान्मनो निग्रहकर्षिताः अथातानन्ददुघं पदाम्बुजं हंसाश्रयेरन्नरविन्दलोचन सुखं नु विश्वेश्वरयोगकर्मभिः त्वन्माययामी विहतानमानिनः केचित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्वम् यो रोचयत्सह मृगैः स्वयमीश्वराणाम् श्रीमत्किरीटतटपीडितपादपीठः तन्त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु को वा भजेत् किमपि विस्मृतयेऽनुभूत्यै किं वा भवेन्न तव पादरजोजुषान्नः नैवोपयन्त्यपचितिं कवयस्तवेश ब्रह्मायुषापि कृतमृद्धमुदस्मरन्तः योऽन्तर्बहिस्तनुभृतामशुभौ विधुन्वन् नाचार्य चैत्यवपुषा स्वगतिर्व्यनक्ति श्रीशुक उवाच इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकस्वशक्तिभिः गृहीतमूर्तित्रयैश्वरेश्वरो जगादसप्रेममनोहरस्मितः श्रीभगवानुवाच हन्तते कथयिष्यामि मम धर्मान् सुमङ्गलान् याई श्रद्धया चरन्मर्त्यो मृत्युये जयति दुर्जयं कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिश्रितान् देवासुरमनुष्येषु मद्भक्ताचरितानि च पृथक् सत्रेण वामयं पर्वयात्रा महोत्सवान् कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः मामेव सर्वभूतेषु बहिरन्तरपावृतम् ईक्षेतात्मनि चात्मानहि यथा खममलाशयः इति सर्वाणि भूतानि मद्भावेन महाद्युते सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ब्राह्मणे पुल्कसेस्तेने ब्रह्मण्येर्के स्फुलिङ्गके अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतो चिरात् स्पर्धासूयातिरस्तारास्ताहङ्काराभियन्ति विसृज्य स्मयमानान् स्वान् दृशौ व्रीडाय च दैहिकी प्रणमी दण्डवद्भूमावाश्वचाण्डालगोखरं यावत् सर्वेषु भूतेषु मद्भावो नोपजायते नावदेवमुपासीत वाङ्मनःकाय वृत्तिः सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया परिपश्यन्नु परमेत् सर्वतो मुक्तसंशयः अयं हि सर्वकल्पानां सद्रीचीनो मतो मम मद्भावसर्वभूतेषु मनोवाकाय वृत्तिभिः नय्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवान्वपि मया व्यवसितः संयं निर्गुणत्वादनाशिषः यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् तदा यासो निरर्थस्याद्भयादेरिव सत्तम एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् यत्सत्यमनुतेनेहमर्त्येनाप्नोति मामृतम् एष तेभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः समासव्यासविधिना देवानामपि दुर्गमः अभीक्ष्णच्छस्ते गदितैज्ञानौ विस्पष्टयुक्तिमत् एतद्विज्ञाय मुज्येत पुरुषो नष्टसंशयः सुविविक्तं तव प्रश्नं मयै तदपि धारये सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति यैतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना यैतत्समधीत पवित्रं परमं शुचि स पूयेताहरहर्माय ज्ञानदीपेन दर्शयन् यैतच्छ्रद्धया नित्यमव्यग्रशृणुयान्नरः मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते अप्युद्धवत्वया ब्रह्म सखे समवधारितम् अपि ते विगतो मोहशोकश्चासौ मनोभवः नैतत्त्वयादाम्बिकाय नास्तिकाय शठाय च अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च साधवेषु च ये ब्रूयाद्भक्ति स्याच्छूद्रयो नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते पीत्वा पीयूषममृतं पातव्यन्नावशिष्यते ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे यावानर्थो नृणान्तात् तावांस्ते मयि चतुर्विधः मर्त्यो यदा त्यक्तसमस्तकर्माणि निवेदितात्मा विचिकीर्षितो मे तदा मृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै श्रीशुक उवाच स एव मादर्शितयोगमार्गस्तदोत्तमश्लोकवचो निशम्य बद्धाय जलिः प्रीत्युपरुद्धकण्ठो न केचिदूचेषु परिप्लुताक्षः विष्टव्यचित्तं प्रणयावघूर्णन् धैर्येण राजन् बहुमन्यमानः कृताय जलिः प्रावयदुप्रवीरम् शीर्ष्णास्पृशं सतच्चरणारविन्दम् उद्धव उवाच विद्रावितो मोहमहान्धकारो याश्रितो मे तव सन्निधानात् विभावसोक्तिन्नु समीपगस्य शीतन्तमोभिः प्रभवन्त्यजाद्य प्रत्यर्पितो मे भवतानुकम्पिना मृत्याय विज्ञानमयः प्रदीपः हित्वा कृतज्ञस्तव पादमूलं कोऽन्यत्समीयाच्चरणं त्वदीयम् वृक्णश्च मे सुदृढस्नेहपाशो दाशार्हवृष्णयन्धकसात्वतेषु प्रसारितसृष्टिविवृद्धये त्वया स्वमाययात्मसुबोधहेतिना नमोऽस्तु ते महायोगिन् प्र प्रपन्नमनुषाधिमां तथा त्वच्चरणाम्भोजीरते स्यादनपायिनी श्रीभगवानुवाच गच्छोद्धवमयाधिष्टो बदर्याख्यं ममाश्रमम् तत्र मत्पादतीर्थो देस्नानोपस्पर्शनै शुचि ईक्षयालकनन्दाय विदूताशेषकल्मषः वसानो वल्कलान्यङ्गवन्यभुः सुखनिःस्पृहः तितिक्षुर्द्वन्द्वमात्राणां सुशीलसंयतेन्द्रियः शान्तसमाहितधिया ज्ञानविज्ञानसंयुतः मत्तोऽनुशिक्षितं यत्ते विरिक्तमनुभावयन् मय्यावेशितवाचित्तो मद्धर्मनिरतो भव अतिव्रज्यगतिस्तिस्रो मामीष्यसि ततः परम् श्रीशुक उवाच स एव मुक्तो हरिमेधसोद्धवः प्रदक्षिणन्तं परिसृत्य पादयोः शिरो निधाय शुकलाभिरार्द्रधीर्न्यषेच दद्वन्द्वपरोऽप्यपक्रमे सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तम् परिहातुमातुरः कृच्छ्रैययौर्धनिभर्तृपादुके बिभ्रन्नमस्कृत्य ययौ पुनः पुनः ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालाम् यथोपदिष्टाय जगदेकबन्धुना तपःसमास्थाय हरेरगागते यैतदानन्दसमुद्रसम्भृतै ज्ञानामृतं भागवताय भाषितम् कृष्णेन योगीश्वरसेविताङ्घ्रिणा सच्छ्रद्धया सेव्यजगद्विमुच्यते भवभयमपहन्तै ज्ञानविज्ञानसारन् निगमकृदुपजह्रे भृङ्गवद्वेदसारम् अमृतमुदभितश्चापाय यद्भृत्यवर्गान् पुरुषमृषभमाद्यं कृष्णसंयन्नतोऽस्मि इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकोनत्रिंशोऽध्यायः ॐ सर्वं श्री कृष्णाय